अथ गौरीशाष्टकम् भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते जलभवदुस्तर जलधिसुतरणं ध्येयं चित्ते शिवचरहरणम् अन्योपायं नहि नहि सत्यं ज्ञेयं शंकर शंकर नित्यं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते दारापत्यं क्षेत्रं वित्तं देहं गेहं सर्वमनित्यम् इति परिभावय सर्वमसारं गर्भविकृत्या स्वप्नविचारं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते मलवैचित्ये पुनरावृत्ति पुनरपि जननी जठरोत्पत्तिः पुनरपि आशा कुलितं जठरं किन्न हि मुञ्चसि कथयेश्चित्तं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते मायाकल्पितमैन्द्रं जालं न हि तत्सत्यं दृष्टिविकारं ज्ञाते तत्त्वे सर्वमसारं मा कुरु विषयविचारं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते रज्जौ सर्पभ्रमणारोपस्तद्वद्ब्रह्मणि जगदारोपः मिथ्या मायामोहविकारं मनसि विचारय वारं वारं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते अध्वरकोटिगङ्गागमनं कुरुते योगं चेन्द्रियदमनम् ज्ञानविहीन सर्वमतेन न भवति मुक्तो जन्मशतेन भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते सोऽहं हंसो ब्रह्मैवाहं शुद्धानन्दस्तत्त्वपरोऽहम् अद्वैतोऽहं सङ्गविहीने चेन्द्रिय आत्मनि निखिले लीने भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते शंकर किंकर मा कुरु चिन्तां चिन्तामणिना विरचितमेतत् यः सद्भक्त्या पठति हि नित्यं ब्रह्मणि लीनो भवति हि सत्यं भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते इति गौरीशाष्टकं सम्पूर्णम्।